प्रतिगुम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धेनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ओम् ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषुः शिवतमा शिवम् बभूव ते धनुः शिवा शरव्याय तवतया नो रुद्रमृडया या ते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तास्ते विवश्यस्तमे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छावदामसि यथा नः सर्वमिर्जगत यक्ष्मगुम् सुमना असत् अध्यवोचददि वक्ता प्रथमो दैत्यो विशक् ऐगश्च सर्वान् जम्बयन् सर्वान् सयातु धान्यः असौ यस्ताम्रो अरुण उत वप्रस्व मङ्गलः ये चेमागुम् रुद्रा अमितो दिक्षश्रुता सहस्रशो वैशागुम् हेड ईमहे असभ्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहान्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्रियोर्जाम् याश्च ते हस्त इषव पराता भगवो वम अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुका शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आवुरस्य निषङ्गतिः या ते हेतिर्विदुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय दृष्टवे उमाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् जपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सत्त्वञ्जरायत्वे श्रीमते पतीनां पतये नमो नमो बभ्लुषाय विव्याधिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तवतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवत्कृताय औषधीनाम् पतये नमो नम उच्चैर्दोषाय क्रन्दयते पत्नीनाम् पतये नमो नमः कृत्सवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रीकाव्यभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्तम् चरद्य प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमो स्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सवाभ्यः सवापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्ति यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो कृत्स्रेभ्यो कृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यस्तेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः संग्रहीतृभ्यश्च वो नमो नमः रक्षद्भ्योरथकारेभ्यश्च वो नमो नमः कुरालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः स्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतध्वन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेरुष्टवाय चेशुवते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च समृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे जाजिराय च नमः शीघ्र्याय च शेव्याय च नमः ऊर्व्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्ध्याय च नमः सोऽज्ञाय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः योग्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय च वविन्दते च नमो वर्मिणे च वरोधिने च नमो विल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो कृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेष्वधिमते च नमस्ते तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च मत्याय च नमः काट्याय च नीप्याय च नमः सोऽज्ञाय च सरस्याय च नमो नाग्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्ते च हनीयते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवतराय च नमस्तेर्त्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शश्व्याय च वेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इदिन्याय च प्रवत्याय च नमः हिगुंशिलाय च क्षयणाय च नमः प्रवर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विद्धते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मावेर्मारोमो येषाम् किञ्चन ममत या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजेतया नो मृणजीवसे इमागुम् रुद्राय तवसे गवर्णिरे क्षयद्वेराय प्रवरामहे मतिम् यथा नश्यवसद्विपदे चतुष्पदे विश्वम् पुष्टम् रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनोमयस्कृति क्षयद्वेराय नमसा विदेवते यच्चम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विदेमते आरात्रे गोग्र उत पोरुषन्ने क्षयद्वेराय सुम् नमस्वेते अस्तु रक्षाचरो अति च देव ब्रूयदा च नश्चर्म यच्च द्विवर्हाः सुहृश्रुतम् गर्त स संयुवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः पर्णो रुद्रस्य हेतिर्विणक्तु परित्वेषस्य दुर्मतिरगायो अवस्थिरा मगवद्भ्यस्तनुष्वमीडुस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन् निदाय कृत्तिम् वसा न आचर विनाकम् विभ्रदारहे विकीर्ण विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयो न्यमस्वन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वर्धन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भव अधि नीलग्रीवा श्रुतिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा श्रुतिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कवर्दिनः ये अन्येषु विविद्यन्ति मात्रेषु विवतो जनान् ये पदाम्बतिरक्षय ऐलवृदायव्युदः ये तीर्थानि प्रचरन्ति स्विकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसहस्रयोजने वर्धन्वानि तन्मसि नमो रुद्रेभ्यो ये प्रथिव्याम्येन्तरिक्षेये दिव्येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदे चेर्दशोद्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् दुष्मो यश्च नो द्वेष्टितम् भोजम् वे ददामि त्रिम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् नन्दिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यस्वशुस्वदन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वामहेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वेशयो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे चोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे वयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति 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 ॐ अत्रिणात्वा कृमे हन्मे कन्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हलः कृमीणागुम् राजा अप्येषानुस्तपतिर्हतः अथो माताथो पिता अथो स्थूला अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता श्वेताभिः सह सर्वे हता आहरावद्या श्रुतस्य हविषो यता तत्सत्यम् यदमुह्यमस्य जम्भयो आदधामि तथा हि तत् कन्वन्मृते ॐ शान्ति शान्ति शान्ति
ॐ सहना भवतु
सह नौ भुनक्तो सह वीर्यम्
करवावहै
तेजस्विनावधीतमस्तु मा विद्विषावहै
ॐ शान्ति शान्ति शान्तिः ॐ भृगुर्वैवारुणिः वरुणम् पितरमुपससार अधेहि भगवो ब्रह्मेति तस्मा एतत्प्रोवाच अन्नम् प्राणम् चक्षुश्रोत्रम् मनोवाचमिति तगुम्होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा अन्नम् ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नम् प्रयन्त्यभिसंविशन्ते ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधेहि भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत सतपस्तप्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणम् प्रयन्त्यभिसंविशन्ते ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधेहि भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत सतपस्तप्त्वा मनो ब्रह्मेति व्यजानात् मनसोऽख्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनप्रयन्त्यभिसंविशन्ते ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधेहि भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत सतपस्तप्त्वा विज्ञानम् ब्रह्मेति व्यजानात् विज्ञानाद्येव खल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानम् प्रयन्त्यभिसंविशन्ते ते तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधेहि भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत सतपस्तप्त्वा आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्येव खल्विमानि भूतानि जायन्ते आनन्दे न जातानि जीवन्ते आनन्दम् प्रयन्त्यभिसंविशन्ते ते सैषा भार्गवे वारुणी विद्या परमेभ्यो मन्प्रतिष्ठिता य एवम् वेद प्रतितिष्ठते अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेना महान् कीर्त्या अन्नम् न निन्द्यात् తద్వ్రతం ప్రాణో వాగన్నం శరీరమన్నాదం ప్రాణే శరీరం ప్రతిష్ఠితం శరీరే ప్రాణ ప్రతిష్ఠితః తదేతదన్నమన్నే ప్రతిష్ఠితం సయగేతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతే అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజయా పశుభిర్బ్రహ్మ వర్చసేన మహాన్ కీర్త్యా
అన్నం న పరిచక్షీత తద్వ్రతం ఆపో వా అన్నం జ్యోతిరన్నాదం అప్సు జ్యోతి ప్రతిష్ఠితం జ్యోతిష్యాప ప్రతిష్ఠితా తదేతదన్నమన్నే ప్రతిష్ఠితం సయయేతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతే అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజయా పశుభిర్బ్రహ్మవర్చసేన మహాన్ కీర్త్యా అన్నం బహుకుర్వీత తద్వ్రతం పృథివీ వామన్నం ఆకాశోన్నాదః పృథివ్యామాకాశ ప్రతిష్ఠితః ఆకాశే పృథివీ ప్రతిష్ఠితా తదేతదన్నమన్నే ప్రతిష్ఠితం
సయ ఏతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతే అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజయా పశుభిర్బ్రహ్మ వచ్చసేన మహాన్ కీర్త్యా న కంచన వసతో ప్రత్యాచక్షీత తద్వ్రతం తస్మాద్వ్యయాకయా జవితయా భక్వన్నం ప్రాప్నుయాత్ అరాధ్యస్మా అన్నమిత్యాచక్షతే ఏదద్వైముఖతో గుమ్రాద్ధం ముఖతోస్మా అన్నగుమ్రాధ్యతే ఏదద్వై మధ్యతో గుమ్రాద్ధం మధ్యతోస్మా అన్నగుమ్రాధ్యతే ఏదద్వాగంతతోన్నగుమ్రాద్ధం అంతతోస్మా అన్నగుమ్రాధ్యతే య ఏవం వేద క్షేమగితి వాచే యోగక్షేమగితి ప్రాణాపానయోః కర్ణేతి హస్తయోః గదిరితి పాదయోః విముక్తిరితి పాయో ఇతి మానుషే సమాజ్ఞాః అదదైవీః తృప్తిరితి వృష్టౌ బలమితి విద్యుతే యశగితి పశుషు జ్యోతిరితి నక్షత్రేషు ప్రజాతిరమృతమానందగిత్యుపస్తే సర్వమిత్యాకాశే తత్ప్రతిష్ఠేత్యుపాసీత ప్రతిష్టావాన్ భవతి తన్మహయిత్యుపాసీత మహాన్ భవతి తన్మనయిత్యుపాసీత మానవాన్ భవతి తన్నమయిత్యుపాసీత నమ్యంతే స్మై కామాః తద్బ్రహ్మేత్యుపాసీత బ్రహ్మవాన్ భవతి తద్బ్రహ్మణ పరిమరయిత్యుపాసీత పర్యేణం మ్రియంతే దిశంతః సపత్నాః పర్యే ప్రియాకా భ్రాతృవ్యాః స యస్యాయం పురుషే యస్యా సా వాదిత్యే స ఏకః స య ఏవంవిద్ అస్మాన్ లోకాత్ ప్రేత్
ಏತಮನ್ನಮಯಮಾತ್ಮಾನಮುಪಸಂಕ್ರಮ್ಯ ಏತಂ ಪ್ರಾಣಮಯಮಾತ್ಮಾನಮುಪಸಂಕ್ರಮ್ಯ ಏತಂ ಮನೋಮಯಮಾತ್ಮಾನಮುಪಸಂಕ್ರಮ್ಯ ಏತಂ ವಿಜ್ಞಾನಮಯಮಾತ್ಮಾನಮುಪಸಂಕ್ರಮ್ಯ ಏತಮಾನಂದಮಯಮಾತ್ಮಾನಮುಪಸಂಕ್ರಮ್ಯ ಇಮಾನ್ ಲೋಕಾನ್ ಕಾಮಾನ್ನಿ ಕಾಮರೂಪ್ಯನು ಸಂಚರನ್ ಏತತ್ ಸಾಮಗಾಯಂ ನಾಸ್ತೆ ಅಹಮನ್ನಮಹಮನ್ನಮಹಮನ್ನಂ ಅಗಮನ್ನಾದೋಹಮನ್ನಾದೋಹಮನ್ನಾದಃ ಅಹಗ್ರಶ್ಲೋಕಕೃದಹಗ್ರಶ್ಲೋಕಕೃದಹಗ್ರಶ್ಲೋಕಕೃತ ಅಹಮಸ್ಮಿ ಪ್ರಥಮಜಾರಿತಾಸ್ಯ ಪೂರ್ವಂ ದೇವೇಭ್ಯೋ ಅಮೃತಸ್ಯ ನಾಭಿ ಯೋ ಮಾ ದದಾತಿ ಸೈ ದೇವಮಾವಹ ಅಹಮನ್ನಮನ್ನಮದಂತಮಾಸ್ಮಿ ಅಹಂ ವಿಶ್ವಂ ಭುವನಮಪ್ಯಭವ ಸುವರ್ಣಜ್ಯೋತಿ ಯಗೇವಂ ವೇದ ಇತ್ಯುಪನಿಷತ್ ಸಹನಾಭವತು ಸಹನೌ ಭುನಕ್ತು ಸಹ ವೀರ್ಯಂ ಕರವಾವಹೈ ತೇಜಸ್ವಿನಾವಧೀತಮಸ್ತು ಮಾ ವಿದ್ವಿಷಾವಹೈ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಭೂಮಿರ್ಭೂಮ್ನಾದ್ಯೌರ್ವರಿಣಾಂತರಿಕ್ಷಂ ಮಹಿತ್ವಾ ಉಪಸ್ಥೇತೇ ದೇವ್ಯದಿತೇಗ್ನಿಮನ್ನಾದಮನ್ನಾದ್ಯಾಯಾದದೆ ಆಯಂಗೋ ಪ್ರಶ್ನಿರಕ್ರಮೀದಸನನ್ ಮಾತರಂ ಪುನಃ ಪಿತರಂ ಚ ಪ್ರಯನ್ ಸುವಃ ತ್ರಿಗುಂ ಶ್ರದ್ಧಾಮ ವಿರಾಜತಿ ವಾಕ್ಪತಂಗಾಯ ಶಿಶ್ರಿಗೇ ಪ್ರತ್ಯಸ್ಯ ವಹದ್ಯುಭಿಃ ಅಸ್ಯ ಪ್ರಾಣಾದಪಾನತ್ಯಂತಶ್ಚರತಿ ರೋಚನ ವ್ಯಖ್ಯನ್ಮಗಿಷಃ ಸುಭಃ ಯತ್ವಾ ಕ್ರುದ್ಧಃ ಪರೋ ವಪಮನ್ಯುನಾಯತವರ್ತ್ಯ ಸುಕಲ್ಪಮಗ್ನೇ ತತ್ತವ ಪುನಸ್ತೋ ದೀಪಯಾಮಸಿ ಯತ್ತೇ ಮನ್ಯುಪರೋಪ್ತಸ್ಯ ಪೃಥಿವೀ ಮನುದಧ್ವಸೇ ಆದಿತ್ಯಾ ವಿಶ್ವೇ ತದ್ದೇವಾ ಬಸವಶ್ಚ ಸಮಾಭರನ್ ಮನೋಜ್ಯೋತಿರ್ಜುಷತಾಮಾಧ್ಯಂ ವಿಚ್ಛಿನ್ನ ಯಜ್ಞಗುಂ ಸಮಿಮಂ ದಧಾತು ಬೃಹಸ್ಪತಿತ್ತನುತಾಭಿಮಂ ನೋ ವಿಶ್ವೇ ದೇವ ಇಹ ಮಾದಯಂತ ಮೇದಿನೀ ದೇವೀ ವಸುಂಧರಾ ಸ್ಯಾತ್ ವಸುಧಾ ದೇವೀ ವಾಸವೀ ಬ್ರಹ್ಮವರ್ಚಸ ಪಿತೃಣಾಗಶ್ರೋತ್ರಂ ಚಕ್ಷುರ್ಮನಃ ದೇವೀ ಹಿರಣ್ಯಗರ್ಭಿಣೀ ದೇವೀ ಪ್ರಸೋವರಿ ಸದನೆ ಸತ್ಯಾಯನೆ ಸೀತ ಸಮುದ್ರವತಿ ಸಾವಿತ್ರೀ ಮನೋ ದೇವೀ ಮಹ್ಯಂಗೀ ಮಹೀಧರಣಿ ಮಹೋವ್ಯತಿಷ್ಠಾ ಶೃಂಗೇ ಶೃಂಗೇ ಯಜ್ಞೇ ಯಜ್ಞೇ ವಿಭೀಷಿಣೀ ಇಂದ್ರಪತ್ನಿ ವ್ಯಾಪಿನಿ ಸುರಸರಿ ದಿಹ वायुमते जलशयने श्रियं धाराजा सत्यं धोपरिमेदिने चोपरिदत्तं परिगाय विष्णुपत्ने महीं देवीं माधवीं माधवप्रियां लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभां धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् महीं देवीं विष्णुपत्नीमजूर्यां प्रतेचे मेनागुं हविषाय जामः त्रेधा विष्णुरुगायो विचक्रमे महीं दिवं पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रवगिच्छमाना पुण्यग्श्लोकम् यजमानाय कृण्वते ॐ
शान्ति शान्ति शान्तिः
न कर्मणा न प्रजया धने न त्यागेनैकेन मृतत्वमानशुः परे ननाकम् निहितम् गुहायाम् विभ्राजते दद्यदयो विशन्ते वेदान्तविज्ञानसुनिश्चितार्थात् सन्न्यासयोगात् यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ते सर्वे दग्रम् विपापम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमध्यसग्रस्त्रम् तत्रापि दग्रम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलेन स यः परः स महेश्वरः जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वानावेपसिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफले सुजुष्टा दुर्गाम् देवीकुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् सुत्रिभिरति दुर्गाणि विश्वा कोश्च पृथ्वी बहुला न उर्वे भवातोकायतनयाज्ञसंयोः विश्वाणि नो दुर्गः जातवे दत्सिन्धुम् ननावादुरितातिपर्षे अग्ने अत्रिवन्मनसा गृणानो अस्माकम् बोध्यविता तनूना वृतनादितगुम् सगमानमुग्रमग्निगुम् भुवे परमासदस्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि अमीढ्यो अध्वरेषु सनाच्छहोतानव्यच्च सत्से स्वाञ्चाग्ने तनुवम् पिप्रयस्वास्मभ्यम् च सौ भगमायजस्व गोभिर्जुष्ठमयुजो निषिक्तम् तवेकेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमपि संवसा नो वैष्णवीम् लोकमिहमादयन्त कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गि प्रजोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ
शान्ति
शान्ति
शान्ति